इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। झारखण्ड महाराष्ट्र राज्ययोः अद्य विधानसभा निर्वाचनस्य मतदानाय सर्वाः सज्जताः व्यवस्थिताः। झारखण्डे द्वितीयाय अन्तिमाय च चरणाय द्वादश जनपदानाम् अष्टत्रिंशद् आसनेभ्यः मतदानं समनुष्ठास्यते। मतदानं प्रातः सप्तवादनात् समारप्स्यते, यद्धि सायंकाले पञ्चवादनं यावत् प्रचलिष्यति। एतस्मिन् चरणे अष्टाविंशत्यधिक पञ्चशतं प्रत्याशिनः नैर्वाचनिकरणे संघर्षरताः सन्ति इति। झारखण्डस्य मुख्य निर्वाचनाधिकारी के रवि कुमारः मतदातृभिः आग्रहं कृतवान् यत् ते भयेन विना मतदानं कुर्वन्तु इति। तत्रैव महाराष्ट्रराज्ये सर्वेभ्यः अष्टाशीत्यधिक द्विशतं आसनेभ्यः एकस्मिन् एव चरणे मतदानं विधास्यते। मतदानं सप्तवादनतः सायंकाले षड्वादन पर्यन्तं प्रचलिष्यति। महाराष्ट्रस्य मुख्य निर्वाचनाधिकारी एस चोकलिंगमः सूचितवान् यत् राज्ये भूयोपि पञ्चलक्षं यावत् मतदातृकर्मिणः सप्तविंशत्यधिक चतुश्शतोत्तरैकलक्षं मतदातृकेन्द्राणां प्रबन्धनं करिष्यन्ति। महाराष्ट्रस्य नान्देड संसदीयक्षेत्रस्य चतुर्णां पंजाब उत्तरप्रदेश केरल उत्तराखण्ड राज्यानां पञ्चदश विधानसभासनेभ्यः उपनिर्वाचनमपि विधास्यते। अपरत्र मतगणना त्रयोविंशति दिनांके भविष्यति। नवदशतमस्य G20 इति शिखरसम्मेलनस्य समापनं राष्ट्रपतिना लुला डा सिल्वा इत्यनेन राष्ट्रपतिं सिरिल रामाफोसा इत्येनं कर्तव्यं समर्पय जातम्। G20 नेतृणां शिखरसम्मेलनाय स्वीये समापनभाषणे राष्ट्रपतिः लूलाः ब्राजीलदेशस्य अध्यक्षतायां विहितानां पदक्षेपाणां विषये चर्चां कथितवान् येषु बुभुक्षां निर्धनतां च विरुध्य वैश्विक एकरूपतायाः प्रारम्भः अथ च वैश्विक शासनम् इतोऽपि सुदृढीकर्तुं प्रारूपस्य उद्घाटनमिति पुनश्च महिलाशक्तीकरणकार्यसमूहस्य स्थापना इति सम्मिलिताः वर्तन्ते। प्रधानमन्त्री नरेन्द्रमोदी सतत विकास ऊर्जा परिवर्तनयोः G20 इत्येतस्य शिखरसम्मेलनस्य द्वितीयदिवसस्य प्रथमं सत्रं सम्बोधितवान्। प्रधानमन्त्रिणा समुदीरितं यत् नवदिल्ल्याम् आयोजिते G20 शिखरसम्मेलनावधौ समूहेन ऊर्जा उत्पादनं त्रिगुणीकर्तुं संकल्पः संकल्पितः। असौ सतत विकास प्राथमिकताः अग्रे वर्धयितुं ब्राजीलदेशस्य निर्णयस्य स्वागतम् अपि कृतवान्। भारतेन कृतपदक्षेपाः अपि तत्र उत्थापिताः। प्रधानमन्त्री नरेन्द्रमोदी स्वीयस्य ब्राजीलदेशस्य सफलप्रवासस्य अनन्तरं गुयानायाः त्रिदिवसीय यात्रार्थं प्रस्थितः। कस्यापि भारतीय प्रधानमन्त्रिणः 68-19-100तमवर्षस्य उपरान्ते प्रथमा इयं गुयाना यात्रा अस्ति। श्रीमोदी जॉर्ज टाउन नगरे गुयानायाः राष्ट्रपतिना डॉ मोहम्मद इरफान अली इत्यमुना साकं चर्चां करिष्यति। प्रधानमन्त्री अत्रावधौ द्वितीये कैरिकॉम भारत शिखर सम्मेलने अपि भागं भजिष्यति। अपि च अनेन क्षेत्रेण सह भारतस्य दीर्घकालिक मैत्रीपूर्ण सम्बन्धं समेधितुं कैरिकॉम इत्येतस्य सदस्य देशानां नेतृभिः साकं उपवेशनानि करिष्यति। पञ्चपञ्चाशत्तमः भारत अन्ताराष्ट्रिय चलचित्र महोत्सवः अद्य गोवाराज्ये समारप्स्यते। इदं भव्यम् आयोजनम् अस्य मासस्य 28 दिनांकं यावत् प्रचलिष्यते। गोवाराज्यस्य मुख्यमन्त्री डॉ प्रमोद सांवतः व्यवस्थां समीक्षितुं डॉ श्यामाप्रसाद मुखर्जी सभागारस्य भ्रमणं कृतवान्। आकाशवाण्या सह सम्भाषमाणः श्री सांवतः प्रख्यापितवान् यत् सर्वविध व्यवस्थाः तत्र सम्पूरिताः। हॉकी प्रतिस्पर्धायाम् अद्य महिलानां एशियाई हॉकी चैम्पियन ट्रॉफी प्रतिस्पर्धायां भारतं चीनदेशेन सह क्रीडिष्यति इति वार्ताः।